अथ त्रयोदशोऽध्यायः क्षेत्रक्षेत्रज्ञविभागयोगः। श्रीभगवानुवाच, इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते, एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते, एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत, क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ञानं मतं मम, तत्क्षेत्रं यच्च यादृक् च यद्विकारी यतश्च यत्, स च यो यत्प्रभावश्च तत्समासेन मे शृणु। ऋषिभिर्बहुधा गीतं छिन्दोभिर्विविधैः पृथक्, ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च, इन्द्रियाणि दशैकं च, पञ्चचेन्द्रियगोचराः, इच्छाद्वेषःसुखं दुःखं सङ्घातश्चेतनाधृतिः, एतत्क्षेत्रं समासेन सविकारमुदाहृतम्। अमानित्वमदम्भित्वम् अहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः, इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च, जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम्, असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु, नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु, मयि चानन्ययोगेन भक्तिरव्यभिचारिणी, विविक्तदेशसेवित्वम् अरतिर्जनसंसदि, अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम्, एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा। ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ञात्वामृतमश्नुते, अनादि मत्परं ब्रह्म न सत्तत् नासदुच्यते। सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्, सर्वतश्रुतिमल्लोके सर्वमावृत्य तिष्ठति, सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्, असक्तं सर्वभृत्यैव निर्गुणं गुणभोक्तृ च, बहिरन्तश्च भूतानाम् अचरं चरमेव च, सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्, अविभक्तं च भूतेषु विभक्तमिव च स्थितं, भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णुप्रभविष्णु च, ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते, ज्ञानं ज्ञेयं ज्ञानगम्यं hrudi sarvasya vishthitam. Iti kshetram tatha jnanam, jneyam choktam samasataha, madbhakta etadvijnaya, madbhavayopapadyate. Prakritim purusham chaiva, vidhyanadi vubhavapi, vikaramscha gunanscheiva, vidhi prakriti sambhavan. Karya karana kartrutve, hetu prakriti ruchyate, purushas sukha dukkhanam, bhoktrutve hetu ruchyate. Purushah prakriti sthohi, bhungte prakriti jan gunan, karanam gunasangosya, sadasadyoni janmasu, upadrashta anumanta cha, bharta bhokta maheswaraha, paramatmeti chapyukto, dehesmin purushah paraha. Ye enam veti purusham, prakritincha gunai saha, sarvadha vartamanopi, nasa bhuyo bhijayate. Dhyanenatmani pasyanti, kechidatmanamatmana, anye sankhyena yogena, karma yogena chapare. Anye tveva majanantaha, srutvanyebhya upasate, tepi chati tarantyeva, murtyum sruti parayanaha. Yavat sanjayate kinchit, sattvam sthavara jangamam, kshetra kshetrajna samyogat, tadviddhi bharatarshabha. Samam sarveshu bhuteshu, tishthantam parameswaram, vinasyatsu avinasyantam, yah pasyati sapasyati. Samam pasyan hi sarvatra, samavasthitamiswaram, nahi nastyatmanatmanam, tato yati parangatim. Prakrityaiva cha karmani, kriyamanani sarvasaha, yah pasyati tathatmanam, akartaram sapasyati, yada bhuta pruthak bhavam, ekasthamanu pasyati, tata eva cha vistaram, brahma sampadyate tada. Anaditva nirgunatvat, paramatma yamavyayah, sarirasthopi kaunteya, nakaroti nalipyate. Yatha sarvagatam saukshmyat, akasyam nopalipyate, sarvatra vasthito dehe, tathātmānopalipyate. Yathā prakāśayatyekah krishnam lokamimam ravih, kshetram kshetri tathā krishnam prakāśayati bhārata. Kshetra kshetrajñayorevam antaram jnana chakshusha, bhuta prakriti moksham cha, ye vidurjanti te param. Kshetra kshetra jnayorevam antaram jnana chakshusha, bhuta prakriti moksham cha, ye vidur yanti te param. इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोऽध्यायः। श्रीकृष्णपरब्रह्मणे नमः।